नमस्काराः. अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे षोडशः पाठः, मार्च् मासस्य सप्तमः दिनाङ्कः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. श्रीलक्ष्मीरमणन्नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते. भूषणसारस्य धात्वर्थप्रकरणे सप्तानाम् कारिकाणाम् अर्थः अस्माभिः अवगतः. तत्र भूषणसारः भट्टोजीदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाणां व्याख्यारूपः. तत्र प्रथमकारिका दीक्षितानां मङ्गलरूप फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्त्वनिर्णीत एवार्थः सङ्क्षेपेणेह कथ्यते इत्यनेन भट्टोजीदीक्षिताः स्वग्रन्थस्य भाष्यमूलकत्वं तस्माच्च प्रामाण्यं साधयन्ति. प्रकरणस्य द्वितीया कारिका अत्यन्तं प्रमुखा कारिका फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् इत्यनेन फलव्यापारौ धात्वर्थः, कर्तृकर्मणि तिङर्थः, व्यापारमुख्यविशेषकः शाब्दबोधः, वैयाकरणानां सिद्धान्तः इत्येवं धात्वर्थविषये वैयाकरणानां प्रमुखाः सिद्धान्ताः कथिताः भट्टोजीदीक्षितैः. तत्र भूषणसारस्य व्याख्याने तिङ् प्रत्ययानां कर्तृकर्मणोशक्तिः इत्येतमंशं पूर्वपक्षनिराकरणपूर्वकं साधयति कौण्डभट्टः. ततः तृतीयायां कारिकायां फलव्यापारयोस्तत्र फले तङ्यक्षिणादयः व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम् इत्यनया यगादयः कर्मद्योतकाः, शवादयः कर्तृद्योतकाः इति प्रतिपादितं दीक्षितैः. अयञ्च नियमः औत्सर्गिकः न तु सार्वत्रिकः. यगादीनां कर्मद्योतकत्वम् औत्सर्गिकं, क्वचित्तु बाधितमेव. यथा क्रमादमुं नारद इत्यबोधिसः इत्यत्र कर्त्रर्थे चिलेः चिन् प्रत्ययः विधीयते बुधधातोः. पुनश्च कर्मकर्तरिप्रयोगे पच्यते ओदनस्वयमेव इत्यनेन कर्मवद्भाववशात् कर्तरि लकारे अपि यगादयः दृश्यन्ते. अतः औत्सर्गिकतया यगादयः कर्मद्योतकाः. वस्तुतस्तु यथोचितं ज्ञेयं द्योतकत्वं यथागमम्, शास्त्रम् अनुसृत्य प्रसङ्गौचित्यमनुसृत्य तिङां कर्तृद्योतकत्वं वा कर्मद्योतकत्वं वा ज्ञातव्यं भवति. तथा पञ्चम्यां कारिकायां व्यापारो भावना सैवोत्पादना सैव चक्रिया कृण्यो कर्मकथापत्तेर्न हि यत्नोऽर्थयिष्यते इत्यनया सर्वविधोऽपि व्यापारः आत्मनिष्ठः कृतिरूपः तथैव शरीरनिष्ठः भूत्कारादिश्च वाच्यः, फलमपि वाच्यम् इत्येतत् साधितम्. भावना लडादिषु लकारेषु अवाच्य इति मीमांसकानां मतम्. कृतिरेव वाच्य व्यापारः न वाच्यः इति नैयायिकानां मतम्. ज्ञाकृ इत्यादिषु व्यापार एव वाच्यः, फलं न वाच्यम् इत्यपि नैयायिकानां मतम्. एतत् सर्वमपि खण्डयित्वा फलव्यापारयोः उभयोः वाच्यत्वं साधितम्. तस्मादेव फलव्यापार उभयवाचकत्वादेव क्रैधातोः सकर्मकत्वं तथा कर्मकर्तरिप्रयोगे कर्मवद्भावश्च सङ्गच्छते इत्यपि प्रतिपादितं षष्ठ्यां कारिकायाम्. किन्तूत्पादनमेवातः कर्मवत्स्याद् यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तद्दृशेरिव इत्यनेन. अर्थात् यदि फलव्यापारयोरुभयोर्वाचकत्वं नास्ति तर्हि सकर्मकत्व अकर्मकत्वविभागः उच्छिद्येत, ಕ್ರಿಯಃ ಸಕರ್ಮಕತ್ವಮಪಿ ನ ಸ್ಯಾತ್ ಕರ್ಮಕರ್ತರಿ ಕ್ರಿಯತೆ ಘಟ ಸ್ವಯಮೇವ ಇತ್ಯಾದಿಷು ಕರ್ಮವದ್ಭಾವೋಪಿ ನ ಸ್ಯಾತ್ ಇತಿ ಆಪತ್ತಿ ಪ್ರದರ್ಶಿತ. ತತ್ರ ಪ್ರಸಂಗವಶಾತ್ ಕರ್ಮವದ್ಭಾವ ಕುತ್ರ ಭವತಿ ಕುತ್ರ ನ ಭವತಿ ಇತ್ಯಪಿ ಕಥಿತಂ ಸಿದ್ಧಾಂತಃ ಕಥಿತಃ. ನಿರ್ವರ್ತ್ಯೇ ಚ ವಿಕಾರ್ಯೇ ಚ ಕರ್ಮವದ್ಭಾವ ಇಷ್ಯತೆ ನತು ಪ್ರಾಪ್ಯೇ ಕರ್ಮಣೀತಿ ಸಿದ್ಧಾಂತೋತ್ರ ವ್ಯವಸ್ಥಿತಃ. ಕರ್ಮ ತ್ರಿವಿಧಂ ಭವತಿ ನಿರ್ವರ್ತ್ಯಂ ವಿಕಾರ್ಯಂ ಪ್ರಾಪ್ಯಂ ಇತಿ. ತತ್ರ ನಿರ್ವರ್ತ್ಯಕರ್ಮಣಃ ವಿಕಾರ್ಯಕರ್ಮಣಶ್ಚ ಕರ್ಮವದ್ಭಾವಃ ಭವತಿ ಪ್ರಾಪ್ಯಕರ್ಮಣಸ್ತು ಕರ್ಮವದ್ಭಾವಃ ನ ಭವತಿ ಇತಿ ಸಿದ್ಧಾಂತಃ ಕಥಿತಃ. ಏತಾವತಾ ಕಿಂ ಜಾತಂ ಫಲವ್ಯಾಪಾರಯೋರ್ ಉಭಯೋರ್ ವಾಚಕತ್ವಂ ಇತಿ ಸಿದ್ಧಾಂತಿತಂ. ಏವಂ ಸಿದ್ಧ್ಯತು ಫಲವ್ಯಾಪಾರಯೋರ್ ವಾಚ್ಯತ್ವಂ. ಲಡಾದ್ಯಂತೆ ಭಾವನಾ ವಾಚ್ಯ ಇತಿ ಪ್ರಾಭಾಕರಮತಂ ಕೃತಿರೇವ ವಾಚ್ಯ ನ ವ್ಯಾಪಾರಃ ಜ್ಞಾ ಕ್ರಿಯಾದಿಶಿ ಚ ಫಲಂ ಅವಾಚ್ಯಂ ಇತಿ ನೈಯಾಯಿಕ ಮತಂ ಚ ನಿರಾಕೃತಂ. ಪೂರ್ವತನ ಕಾರಿಕೆಯ ಸೊ ದ ಮೇನ್ ಕಾರಿಕಾ ಇಸ್ ವ್ಯಾಪಾರೋ ಭಾವನಾ ಸೈವೋತ್ಪಾದನ. ಸೊ ತಯಾ ಏತೇ ಪ್ರಾಭಾಕರ ಮತಂ ನೈಯಾಯಿಕ ಮತಂ ಚ ನಿರಾಕೃತಂ ಫಲವ್ಯಾಪಾರಯೋ ಉಭಯೋ ವಾಚ್ಯತ್ವಂ ಸಾಧಿತಂ. ದೇ ಆರ್ ಬೋತ್ ವಾಚ್ಯಾರ್ಥ. ಅಧುನಾ ಅಗ್ರಿಮಕಾರಿಕಾಯಾಂ ಮಂಡನಮಿಶ್ರಮತಸ್ಯ ಖಂಡನಂ ಆರಭತೆ. ಪೂರ್ವಂ ಕಿಮುಕ್ತಂ ಪ್ರಾಭಾಕರಾಃ ಕಿಂ ಅವಾದಿಶುಃ ಭಾವನಾ ಲಿಂಗ ಲಕಾರೆ ಏವ ಭಾವನಾ ವಾಚ್ಯ ಲಡಾದ್ಯಂತೆ ಭಾವನಾಯಾಃ ವಾಚ್ಯತ್ವಮೇವ ನಾಸ್ತಿ ಇತಿ ಪ್ರಾಭಾಕರಾಃ. ಸೊ ಪ್ರಾಭಾಕರಾಃ ಅಪಿ ಮೀಮಾಂಸಕಾಃ ಮೀಮಾಂಸಕೇಷು ಕೇಚನ ತಥಾ ವದಂತಿ. ಅನ್ಯೇ ಮೀಮಾಂಸಕಾಃ ಮಂಡನಮಿಶ್ರಾನುಯಾಯಿನಃ ತೇತು ಲಡಾದಿಷು ಭಾವನಾಯಾಃ ವಾಚ್ಯತ್ವಂ ಅಂಗೀಕುರುವಂತಿ ಕಿಂತು ಸಾ ಭಾವನಾ ಪ್ರತ್ಯಯವಾಚ್ಯ ತಿಂಗ್ ಪ್ರತ್ಯಯವಾಚ್ಯ ನತು ಧಾತುವಾಚ್ಯ ಇತಿ ತೇಷಾಂ ಮತಂ. ತಸ್ಯ ಖಂಡನಂ ಇದಾನೀಂ ಕ್ರಿಯತೆ. ಯತಾವತಾ ತು ವ್ಯಾಪಾರಃ ವಾಚ್ಯಃ ಇತಿ ಸಾಧಿತಂ ಕೇನ ವಾಚ್ಯಃ ಕಸ್ಯ ಅರ್ಥಃ ವ್ಯಾಪಾರಃ ಇತ್ಯಂಶಃ ನ ಪರಾಮೃಷ್ಟಃ. ಅಗ್ರೆ ಉಚ್ಯತೆ. ಕಿಂತು ಆಖ್ಯಾತವಾಚ್ಯೈವ ಸಾ ಭಾವನಾ ನ ಧಾತೋಃ ಪ್ರಾಧಾನ್ಯೇನ ಪ್ರತೀಯಮಾನಸ್ಯ ವ್ಯಾಪಾರಸ್ಯ ಧಾತ್ವರ್ಥತಾಯಾಃ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯಾರ್ಥಯೋಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಇತಿ ನ್ಯಾಯವಿರುದ್ಧತ್ವಾತ್ ತದಾಗಮೇ ಹಿ ದೃಶ್ಯತೆ ಇತಿ ನ್ಯಾಯವಿರುದ್ಧತ್ವಾಚ್ಚ. ಸೊ ಮೀಮಾಂಸಕಾನಾಂ ಮತೆ ಭಾವನಾ ಆಖ್ಯಾತವಾಚ್ಯ. ಆಖ್ಯಾತಃ ನಾಮ ತನ್ಮತೆ ತಿಂ ಪ್ರತ್ಯಯಃ ಪ್ರತ್ಯಯವಾಚ್ಯ ಭಾವನಾ ಇತಿ ತೇಷಾಂ ಮತಂ. ಕಿಮರ್ಥಂ ಪ್ರಾಧಾನ್ಯೇನ ಪ್ರತೀಯಮಾನಸ್ಯ ವ್ಯಾಪಾರಸ್ಯ. ವ್ಯಾಪಾರಃ ಪ್ರಧಾನಂ ಶಾಬ್ದಬೋಧೆ ವ್ಯಾಪಾರ ಮುಖ್ಯ ವಿಶೇಷಕಃ ಅಥವಾ ಭಾವನಾ ಮುಖ್ಯ ವಿಶೇಷಕಃ ಶಾಬ್ದಬೋಧಃ ಯಥಾ ವೈಯಾಕರಣೈಃ ತಥಾ ಮೀಮಾಂಸಕೈರಪಿ ಅಂಗೀಕ್ರಿಯತೆ. ಅತಃ ಪ್ರಾಧಾನ್ಯೇನ ಪ್ರತೀಯಮಾನಸ್ಯ ವ್ಯಾಪಾರಸ್ಯ ಧಾತ್ವರ್ಥತಾಯಾಃ. ಯದಿ ವ್ಯಾಪಾರಃ ಧಾತ್ವರ್ಥಃ ಇತಿ ಅಂಗೀಕ್ರಿಯತೆ ತರ್ಹಿ ನ್ಯಾಯದ್ವಯ ವಿರುದ್ಧಂ ಸ್ಯಾತ್. ಕಿಂ ನ್ಯಾಯದ್ವಯಂ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯಾರ್ಥಯೋಃ ಪ್ರತ್ಯಯಾರ್ಥಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ ಇತಿ ನ್ಯಾಯ ವಿರುದ್ಧತ್ವಾತ್ ತದಾಗಮೇ ಹಿ ದೃಶ್ಯತೆ ಇತಿ ನ್ಯಾಯ ವಿರುದ್ಧತ್ವಾಚ್ಚ. ಏತನ್ ನ್ಯಾಯದ್ವಯಮಪಿ ವಿರುದ್ಧ್ಯತೆ ಇತಿ ಕಾರಣೇನ ಭಾವನಾ ಆಖ್ಯಾತವಾಚ್ಯ ನತು ತಿಂ ವಾಚ್ಯ ಕ್ಷಮ್ಯತಾಂ ಆಖ್ಯಾತವಾಚ್ಯ ನತು ಧಾತುವಾಚ್ಯ ಇತಿ ಮೀಮಾಂಸಕಾಃ ಅವತಿಷ್ಠಂತೆ. ತತ್ರ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯೋ ಸಹಾರ್ಥಂ ಬ್ರೂತಃ ತತ್ರ ಪ್ರತ್ಯಯಾರ್ಥಃ ಪ್ರಧಾನಂ ಇತಿ ಪ್ರತ್ಯಯಾರ್ಥ ಪ್ರಾಧಾನ್ಯ ನ್ಯಾಯಃ. ತದಾಗಮೇ ಹಿ ತದೃಶ್ಯತೆ ತಸ್ಯ ಜ್ಞಾನಂ ಯಥಾನ್ಯಷಾಂ ಇತಿ ಜೈಮಿನಿ ಸೂತ್ರೇಣ ತದಾಗಮ ನ್ಯಾಯಃ. ಎಕ್ಸ್ಕ್ಯೂಸ್ ಮೀ, ಐ ವಿಲ್ ಬಿ ಬ್ಯಾಕ್ ಜಸ್ಟ್ ಒನ್ ಮೊಮೆಂಟ್ ಪ್ಲೀಸ್. sorry for the interruption. Tadagamehi tadrishyate tasya jnanam yathanyesham iti jaimini sutram. Tatra pratyartha pradhanyanyayaha purvam api drishtaha. Yatra prakritya kashchana arthaha abhidhiyate. Pratyayena cha aparaha arthaha abhidhiyate. Tayoho madhye pratyartha pradhanam bhavati. Yatha dasharatha iti prakritihi. Iya iti apatyarthakaha pratyayaham. Dasharathihi iti rupam. Tatra dasharathihi gacchati iti yadi uchyate. Tatra kriyayam pratyayarthasya apatyasyaiva anvayaha natu prakrityarthasya dasharathasya. Ataha pratyayarthasya pradhanyam iti nyayaha. Jaimini sutre, Mimamsa sutre, tadagamehi tadrishyate tasya jnanam yathanyesham iti kvachid uchyate. Yataha tadagame tatra pashunayajeta ityadishu pashuna ityatra tritiya ekavachana pratyayaha asti tatra ekatvam vivakshitam va na va iti prasange tatra pratyayasya agame tadrishyate nama ekatvam api drishyate tasya jnanam yatha anyesham evancha pratyayasya agame ye arthaha drishyante tesham sarvesham jnanam bhavati ataha yatha anyesham nama karanatvadinam jnanam bhavati tatha ekatvasya api jnanam bhavatyeva iti jaimini sutram evancha atra api pachati pachidhatoho akhyatagame yatra akhyataha nama tim pratyayaha kriyate tatra pradhanyena bhavanayaha pratitihi bhavati yatra tu pachakaha patati iti pachakaha ityadau akhyatasya abhave bhavanayaha apratitihi nama pradhanyena bhavana na pratiyate tatra kartuhu eva pradhanyate evancha akhyatagame pratitihi bhavati akhyatasya abhave pratitir nasti ityataha akhyatarthaha eva bhavana tadagamanyayena iti mimamsakanam matam Anvaya vyatirekabhyam, anvayaha drishyate, akhyatagame bhavanayaha pratitihi iti anvayaha, akhyatabhave bhavanayaha pratityabhavaha iti vyatirekaha. Evam, anvaya vyatirekabhyam bhavana akhyatarthaha iti sadhayanti mimamsakaha. Evancha, svayukta akhyatartha vyapara vyathikarana phalavachakatvam sakarmakatvam akhyatartha vyapara ashrayatvam cha kartatvam vachyam ityadi vadantam mimamsakam manyam pratyaha evancha kim bhavati purvam kimuktam bhavana yadi ladadyante avachya ityuchyate tada kechana doshaha varnitaha sakarmaka akarmaka vibhagochhedaha evancha kartrutvam kartrutvasya anugata kartrutvasya vaktum ashakyatvat ityadayah doshaha purvam uktaha te doshastu idanim na sambhavanti bhavana vachya kintu akhyata vachya ityangikare doshaha na bhavanti sakarmakatvam vaktum shakyate katham vyakaranamate kimuktam svartha vyapara vyadhikarana phalavachakatvam svam ityanena dhatuhu dhatvarthaha yaha vyaparaha tasmad vyadhikaranasya phalasya vachakaha yaha dhatuhu saha sakarmakaha iti tatra mimamsakamate kim kriyate svayukta akhyatartha vyapara vyadhikarana phalavachakatvam atrapi svam ityanena dhatuhu dhatuna yuktaha yaha akhyata pratyayah tadarthaha yaha vyaparaha tadvyadhikarana phalasya vachakaha sadhatushchet sakarmakaha anyatha akarmakaha ityevam svartha vyapara ityapekshaya svayukta akhyata artha vyapara iti sakarmakatvasya lakshanam vadanti kincha kartrutvam namakim akhyata artha vyapara ashrayatvam kartrutvam asmabhihi dhatvartha vyapara ashrayatvam kartrutvam ityuchyate mimamsakaistu akhyata artha vyapara ashrayatvam kartrutvam ityuchyate evam cha etat sarvam api mimamsakamatasya anuvadah So he is saying this is what the Mimamsakas argue. They say, Yadi vyaparaha dhatvarthaha ityangi kriyate, tarhi prakriti pratyayarthayoho pratyayarthaha pradhanam iti nyayam virudhyate, tadagaman nyayaha virudhyate, kincha bhavanayaha akhyatarthatvepi doshaha na santi, sakarmakatva, sakarmaka akarmaka vibhagaha susadhaha, evancha kartrutvasya lakshanam api sadhayitum shakyam अतः भावना आख्यातार्थः इति मीमांसकमतम्। श्रूयते वा? Are you able to hear me? There was no break. Fulla ketta.
There was no.
I got a message saying connection is lost. अस्तु अतः एवम् इत्यादि वदन्तं मीमांसकं प्रति वस्तुतः मीमांसकः मीमांसकं मन्यः इत्युक्ते वस्तुतः पूर्वमपि कौण्डभट्टेन मङ्गलश्लोके प्रतिपादितं धुन्धिं गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् सिद्धान्तान्। वस्तुतः गौतमस्य जैमिनेश्च सिद्धान्तः वैयाकरणसिद्धान्ते एव, तेषां व्याख्यातृभिः यदुक्तं तदेव दुष्टम् इति। अतः अत्रापि मीमांसकं मन्यः, आत्मानं मीमांसकं मन्यते इति मीमांसकं मन्यः, एवं विद्वं मन्यः, पण्डितं मन्यः इत्यादि प्रयुज्यन्ते। आत्मानं पण्डितं मन्यते, वस्तुतः पण्डितः न, किन्तु आत्मानं पण्डितं, पण्डितः इति आत्मानं चिन्तयति। ही हु थिङ्क्स् आफ् हिम्सेल्फ् एज़् अ स्कालर्, मीमांसकं मन्यः, ही हु थिङ्क्स् आफ् हिम्सेल्फ् एज़् अ मीमांसक इत्युक्ते सः वस्तुतः मीमांसक मतं न जानाति, केवलं मीमांसकं मन्यः, आत्मानं मीमांसकं भावयन् एवं मीमांसकसिद्धान्तं विपरीततया प्रतिपादयति इति भावः कौण्डभट्ट। तं प्रति आह, एवं ये मीमांसकाः वदन्ति तान् एषः उत्तरति। इदम् अष्टमकारिकायाः अवतरणम्। सो आल् दिस् इस् द प्रिल्यूड् टु द एय्थ् कारिका। अष्टमकारिकायां व्यापारस्य धात्वर्थवाच्यत्वं साधयति भट्टोजिदीक्षितः, तस्य अवतरणिकारूपेण एतत् वदति। तस्मात् करोतिर्धातोस्याद्व्याख्यानं नत्वसौतिनां पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि इत्येषा अष्टमीकारिका। तस्मात् करोतिः धातोः व्याख्यानं स्यात्, न तु असौतिनां व्याख्यानम्। पक्ववान् कृतवान् पाकं किं कृतं पक्वम् इत्यादिषु पचति पाकं करोति, पक्ववान् कृतवान् पाकं किं कृतं पक्वम् इत्यादिषु करोतिः धातोः व्याख्यानं स्यात् न त्वसौतिनां पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि। तस्मात् अभिप्रायस्थहेतोः किमुक्तं पूर्वं फलव्यापारयोः उभयोः वाच्यत्वं भवति इत्युक्तम्। स च इत्थं फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवान् इति प्रयोगापत्तिः संयोगाश्रयत्वात्। नौ फलव्यापारयोर्धातुः फलं व्यापारश्च उभयमपि धात्वर्थः इति प्रतिज्ञातम्। यदि तु फलमात्रं धात्वर्थः भावना आख्यातार्थः इति स्वीक्रियते तर्हि कः दोषः? ग्रामो गमनवान् इति प्रयोगापत्तिः संयोगाश्रयत्वात्, ग्रामो गमनवान् इति प्रयोगः भवितुमर्हति, वस्तुतः नेष्यते। चैत्रः गमनवान् इति भवति, ग्रामो गमनवान् इति न भवति, यतोहि ग्रामः न गच्छति। गमनम् इति रूपं, तत्र गम् इति धातुः, ल्युट् इति प्रत्ययः भावार्थकः, ल्युट् च इति सूत्रेण विहितः। तस्य अर्थः कः इति चेत् भावार्थः इत्युच्यते। भावः नाम कः? भावो नाम धात्वर्थः। धातोः यः अर्थः स एव अर्थः प्रत्ययेनापि बुध्यते इति भावपदार्थः। सामान्यतः कृत् प्रत्ययाः कर्त्रर्थे विधीयन्ते कर्तरि कृत् इत्यनेन, अयं तु भावार्थे प्रत्ययः, भावो नाम धात्वर्थः इत्युक्तम्। यदि फलमात्रं धात्वर्थः तर्हि गमनम् इत्यस्य कः अर्थः? फलम् एव अर्थः। किं फलम्? उत्तरदेशसंयोगः फलम्। तर्हि उत्तरदेशसंयोगः गमनम् इति पदस्य अर्थः। संयोगः सर्वदा द्विष्ठः, संयोग असोसिएशन् आल्वेज़् एक्सिस्ट् इन् टु थिङ्ग्स्, इट् इस् नाट् ओन्ली इन् वन्। इदानीं चैत्रस्य ग्रामेण सह यत्र संयोगः सः संयोगः चैत्रे अपि भवति तथैव ग्रामे अपि भवति एवञ्च अयं संयोगः ग्रामे अपि अस्ति यथा चैत्रे चैत्रः ग्रामं गच्छति इत्यत्र संयोगः यथा चैत्रे अस्ति तथा ग्रामे अपि सः संयोगः अस्त्येव अतः ग्रामोगमनवान् इति प्रयोगः भवति इति आपत्ति वस्तुतः नेष्यते सिद्धान्ते किं भवति फलव्यापारौ उभयो उभावपि धात्वर्थः तदा गमनम् इत्यस्य कः अर्थः उत्तरदेशसंयोगानुकूलव्यापारः धात्वर्थः यः स एव पदस्यापि अर्थः अतः उत्तरदेशसंयोगानुकूलव्यापारः गमनम् इत्यस्य अर्थः इदानीं ग्रामोगमनवान् इति न भवति यतः व्यापारः ग्रामे नास्ति सो ग्राम डस् नाट् हाव् द एक्शन् विच् लीड्स् टु उत्तरदेशसंयोग इट् ओन्ली हेज् संयोग अतः फलमात्रस्य धात्वर्थत्वे ग्रामोगमनवान् इति प्रयोगापत्तिः संयोगाश्रयत्वात् संयोगः फलम् फलाश्रयत्वात् कर्म ग्रामः यः अस्ति सः तत्र तस्य विषये ग्रामो गमनवान् इति प्रयोगः स्यात् इत्यापत्तिः किञ्च यदि फलमात्रं धात्वर्थः तर्हि फल अनुत्पाददशायां व्यापारसत्त्वे पाको भवति इति अनापत्तिः पाकः इत्यस्ति पचधातोः घञ् इति प्रत्ययः सोऽपि भावार्थकः भावे इति सूत्रेणैव घञ् प्रत्ययः पाको भवति इत्यत्र पाकशब्दस्य इदानीं कः अर्थः विक्लिप्तिः इत्यर्थः तर्हि विक्लिप्तिः भवति विक्लिप्तेः वर्तमानत्वं कदा यदा फलम् अस्ति अतः फल अनुत्पाददशायां यदा तु विक्लिप्तिः न सम्पन्ना इदानीमेव पाककार्यम् आरब्धं तदा किं भवति व्यापारः अस्ति वस्तुतः पाकानुकूलविक्लिप्त्यनुकूलव्यापारः वर्तमानः तथापि फलस्य वर्तमानत्वमेव पाको भवति इत्यनेन उच्यते इत्यतः पाको भवति इति प्रयोगः न स्यात् वस्तुतः इष्यते यदा पाककार्यम् आरब्धम् तदैव पाको भवति इति प्रयोगः इष्यते यतोहि व्यापारस्य वर्तमानत्वम् एव अस्माभिः विवक्ष्यते यदि फलमात्रम् धात्वर्थः तर्हि पाकशब्दस्य फलमात्रमर्थः तथा सति पाकस्य वर्तमानत्वे विक्लिप्तेः वर्तमानत्वे एव वर्तमानकालिकप्रयोगः स्यात् व्यापारस्य वर्तमानकालिकत्वे वर्तमानप्रयोगः न स्याद् इति आपत्तिः किञ्च व्यापारविगमे व्यापारस्य समाप्तौ फलसत्त्वे फलं तु अस्ति विक्लिप्तिः दृश्यते तण्डुलं पक्वं घण्टाद्वयात् पूर्वमेव पक्वम् इदानीं तु यदस्ति तत्र फलं दृश्यते विक्लिप्तिः तर्हि पाको विद्यते अर्थात् पचति इति पाको विद्यते इत्यस्य पचति इत्यर्थः पाको विद्यते इति आपत्तिः किमर्थम् पाकशब्दस्य विक्लिप्तिमात्रम् अर्थः विक्लिप्तिस्तु अस्ति अतः व्यापारविगमे फलसत्त्वे यद्यपि पाककार्यम् इदानीं न चलति तदापि पाको विद्यते इति प्रयोगः स्यात् इति आपत्तिः स्वापत्ति आल्वेज् मीन्स् देर् वुड् बी सच् यूसेज् विच् इस् नाट् एक्चुलि करेक्ट् अत एव आपत्तिः इत्युच्यते सिद्धान्ते तु पाकशब्दः भावार्थकघयन्तः अतः तेन विक्लिप्तिः तदनुकूलः व्यापारः उभयम् उच्यते अतः व्यापारस्य वर्तमानत्वे वर्तमानकालप्रयोगः व्यापारस्य भूतत्वे भूतप्रयोगः इति सिद्धान्ते सङ्गच्छते फलमात्रस्य धात्वर्थत्वे न सङ्गच्छते यत्तु भावप्रत्ययस्य घयादेः अनुकूलव्यापारवाचकत्वात् न अनुपपत्तिः इति तन्न कर्त्राख्यातवत् कर्तरिकृत् इत्यतः एव तद्विधानलाभे भावे विधायक अनुशासनवैयर्थ्यापत्तेः तद्विरोधापत्तेश्च तत्र मीमांसकाः किं वदन्ति अस्माभिः दोषत्रयं दर्शितम् किं ग्रामो गमनवान इति प्रयोगः स्यात्। यदि व्यापारस्य धात्वर्थत्वं नास्ति तर्हि ग्रामो गमनवान इति आपत्तिः व्यापार सत्वेपि पाको भवति इत्यस्य अनापत्तिः व्यापार विगमे फलसत्वे पाको विद्यते इत्यापत्तिः इति त्रेधा आपत्तिः दर्शिता। तत्र मीमांसकैरुच्यते भावे घञादयः विधीयन्ते। बहवः प्रत्ययाः सन्ति यथा क्तिन् स्त्रियां क्तिन् प्रत्ययः, तस्मिन् अर्थे केचन प्रत्ययाः सन्ति, घञ् प्रत्ययः, ल्युट् प्रत्ययः, एवं बहवः प्रत्ययाः सन्ति। तेषां कः अर्थः? धात्वनुकूलव्यापारः भावः। भावो नाम कः? वैयाकरणैरुच्यते धात्वर्थः एव भावः इति। किन्तु मीमांसका वदन्ति धात्वर्थ अनुकूलव्यापारः भावः। धात्वर्थं यः जनयति प्रयोजयति तादृशः एव भावः इति वदामः। तथा सति भावे यत्र प्रत्ययः विधीयते तत्र व्यापारस्यापि भानं भवति। अतः गमनम् इत्युक्ते धात्वर्थः संयोगः, तदनुकूलव्यापारः भावपद प्रत्ययार्थः। अतः उत्तरदेशसंयोगानुकूलः व्यापारः गमनशब्दस्य अर्थः, एवं विकृत्यनुकूलः व्यापारः पाकशब्दस्य अर्थः। एवं चेत् सर्वं सुगमम्। यत्र व्यापारस्य भानमस्ति तत्र ग्रामो गमनवान् इति न भवति, व्यापारस्य वर्तमानत्वे एव पाको भवति इत्यादि प्रयोगाः सिद्ध्यन्ति इति तेषां मतम्। किन्तु तदुच्यते अत्रुच्यते तत् न। यत्तु भावप्रत्ययस्य घञादेः अनुकूलव्यापारवाचकत्वात् न अनुपपत्तिः इति तन्न। कर्त्राख्यातवत् कर्तरिकृत् इत्यतः एव तद्विधानलाभे। किमुच्यते मीमांसकैः यदि स्मर्यते प्रथमकारिकायामपि उक्तं तिङन्ते लः कर्मणि च भावे च कर्मकेभ्यः इति सूत्रे कर्तरिकृत् इत्यस्मात् सूत्रात् कर्तरि इति अनुवर्त्यते। इदानीं लः कर्तरि कर्मणि च स्युः इति सूत्रार्थः। तत्र कर्तरि कर्मणि इत्यस्य कः अर्थः स्वीकृतः? डु यु रिमेम्बर् वाट् डु द मीमांसकस् से इस् द मीनिङ्ग् आफ् कर्तरि एण्ड् कर्मणि इन् लः कर्मणि च भावे च कर्मकेभ्यः? किमुक्तं तैः? धर्मपरकत्वम् अङ्गीकृतम्। वस्तुतः कर्तरि कर्मणि इति धर्मिपरकत्वेन निर्देशः, किन्तु धर्मपरत्वेन व्याख्याने कर्तृत्वं कर्मत्वं, कर्तृत्वं नाम कृतिः, कर्मत्वं नाम फलं तदेव इति स्वीकृतम्। एवमत्रापि स्वीकर्तुं शक्यते किल, यत्र यत्र भावे कश्चित् प्रत्ययः इष्यते तस्मिन् सूत्रे कर्तरिकृत इत्यतः कर्तरि इति अनुवर्तते, तत्र कर्तृत्वं नाम कृतौ शक्तिः इति स्वीकुर्मः। एवं च कर्तरिकृत इत्यतः एव तद्विधानलाभे। किम् कृत्यर्थकप्रत्ययस्य विधानलाभे भावे विधायक अनुशासन वैयर्थ्यापत्तिः। एवञ्च यत्र यत्र भावे इति पृथग् विधीयते पाणिनिना तत्सर्वमपि व्यर्थम्। कर्तरिकृत् इत्यतः एव सिद्ध्यति। तर्हि भावे इति पुनः किमर्थं वक्तव्यम्? तद्विरोधापत्तेश्च विशिष्य विहितत्वादेव ज्ञायते भावपदार्थः भिन्नः, सो इट् इस् डिफरेण्ट् फ्रम् द कर्तृत्व इति तेनैव ज्ञायते। यत्तु भावप्रत्ययस्य घञादेः अनुकूलव्यापारवाचकत्वात् न अनुपपत्तिः इति तन्न। कर्त्राख्यातवत् कर्तरिकृत् इत्यतः एव तद्विधानलाभे। भावे विधायक अनुशासन वैयर्थ्यापत्तेः तद्विरोधापत्तेश्च। अथ व्यापारोऽपि धात्वर्थः इति अभ्युपेयम् इति चेत् तर्हि धातुतः एव सकलव्यापारलाभसम्भवेन आख्यातस्य पृथक्शक्तिकल्पने गौरवम् इति। तत्र किमुच्यते मीमांसकैः? नव्यमीमांसकाः इति केचन सन्ति, सुमीमांसकेषु बहवः अन्तर्गणाः भाट्टाः प्राभाकराः मण्डनमिश्रमतायनः नव्यमीमांसकाः इत्यादि भिन्नाः गणाः सन्ति. तत्र नव्यमीमांसकाः वदन्ति फलव्यापारौ धात्वर्थः भवतु तद्व्यापारानुकूला कृतिरूपा भावना तु प्रत्ययार्थः. सो सिमिलर् टु नैयायिकास् देशे फलं शरीरनिष्ठः व्यापारस्य धात्वर्थः इति स्वीकुर्मः. तद्व्यापार अनुकूला भावना कीदृशी सा कृतिरूपा सा तु प्रत्ययार्थः तस्याः एव प्राधान्यम् प्रत्ययार्थस्य प्राधान्यम् इति मीमांसकानाम् आग्रहः. अतः धात्वर्थः अपि भवतु व्यापारः प्रत्ययार्थः अपि कृतिः इति स्वीकुर्मः तस्याः एव प्राधान्यं भवतु. सो बोत् सैड्स् आर् साटिस्फैड्. सो यदि फलमात्रं धात्वर्थः तर्हि ग्रामो गमनवान् इत्यादि दोषाः भवन्ति इत्युक्तं तदिदानीं न भवति यतोहि फलमात्रं धात्वर्थः न फलेन सह व्यापारोऽपि धात्वर्थः. किञ्च यदि व्यापारः धात्वर्थः तर्हि प्रत्ययार्थन्यायविरोधः तदागमन्यायविरोधः इत्युक्तं तदपि न भवति यतोहि प्रत्ययार्थः अपि भावना एवञ्च सर्वं सम्यक् इति केचन मीमांसकाः. अथ व्यापारोऽपि धात्वर्थः इति अभ्युपेयम् अभ्युपेयम् नाम अङ्गीकर्तव्यम् इत्यर्थः. इति चेत् तर्हि धातुतः एव सकलव्यापारलाभसम्भवेन आख्यातस्य पृथक् शक्तिकल्पने गौरवम्. इदानीं किमुक्तम्? कश्चिद्व्यापारः धात्वर्थः कश्चित् तिङर्थः इति गौरवम्. सो व्यापारे शरीरनिष्ठः व्यापारः धातुना लभ्यते इति धातोः अपि व्यापारे शक्तिः कल्पनीया एवञ्च तदनुकूल तद्व्यापारानुकूला कृतिः प्रत्ययार्थः इति प्रत्ययस्यापि कृतौ शक्तिः कल्पनीया एवं शक्तिद्वयं कल्पनीयं भवति. तदपेक्षया सर्वविधोऽपि व्यापारः धात्वर्थः इति एका एव शक्तिः कल्प्यताम्. व्यापारपदेन यद्यद्गृह्यते व्यापारो भावना उत्पादना क्रिया इत्यादि सर्वमपि धात्वर्थ एव इति स्वीकारे लाघवं भवति इति वैयाकरणानां मतम्. अथ व्यापारोऽपि धात्वर्थः इति अभ्युपेयम् इति चेत् तर्हि धातुत एव सकलव्यापारलाभसम्भवेन आख्यातस्य पृथक् शक्तिकल्पने गौरवम् इति उच्यते. ओके, दिस् इस् वन् पार्ट्. Clear? Any questions? अग्रे गच्छामः. तस्मात् करोतिर्धातोस्याद् व्याख्यानं नत्वसौ तिङाम् इत्युच्यते. तस्य तस्मात् इत्यस्य कः अर्थः? फलव्यापारयोः उभयोरपि धातुवाच्यत्वात् इत्यर्थः. नो चेत् कः के आपत्तयः इति काः आपत्तयः इति कौण्डभट्टेन दर्शितम्. इदानीं पचति इत्यस्य पाकं करोति इति विवरणात्मा करोतिः धातोरेव व्याख्यानम् अथवा विवरणम्. अतः तदपि न आख्यातार्थत्वसाधकम् इति भावः. करोतिर्धातोस्याद्व्याख्यानं नत्वसौ तिङाम् इति कारिकायाः प्रथमपादे उच्यते. कोऽर्थः? पचति इत्यस्य विवरणं दीयते पाकं करोति इति. तत्र पाकः इति धात्वंशस्य विवरणं, करोति इति प्रत्ययांशस्य विवरणम् इति मीमांसकाः. पचति इत्यस्य पाकं करोति इति विवरणात्मा करोतिः धातोरेव व्याख्यानं न प्रत्ययस्य इति मीमांसकाः वदन्ति. अतः पाकः इति धातोः विवरणं, करोति इति प्रत्ययस्य विवरणम्. कृ धातुना प्रत्ययः विव्रियते इत्यतः भावना प्रत्ययार्थः इति मीमांसकाः. मीमांसकोक्तं बाधकम् उद्धरन् त तन्मतं दूषयति नतु इत्यादिना। अतएव दीक्षितैः किमुच्यते, करोति हि धातोस्याद् व्याख्यानं नतु असौ तिङाम्। तिङ् प्रत्ययानाम् अर्थः इति न वक्तव्यम्। वस्तुतस्तु यद्यपि पाकं करोति इति दृश्यते, तत्र क्री धातुः धातोरेव विवरणं भवति इति वदति। नासौ तिङां व्याख्यानं पक्ववान् इत्यादौ अनन्वया पत्तेः। करोति इत्यत्र कृ धातुः, तिङ् प्रत्ययानां व्याख्यानम् इत्युच्यते, तन्न किमर्थम्? पक्ववान् इत्यादौ अनन्वया पत्तेः। पक्ववान् इति रूपमस्ति, यथा पचति तथा पक्ववान्, भूतकाले क्तवतु प्रत्यये पक्ववान् इति। तत्र किं विवरणं दीयते? पाकं कृतवान्। पक्ववान् इत्यस्य कोऽर्थः? पाकं कृतवान्। समानया रीत्या, जस्ट् लैक् वि अनलैज् देर्, यदि पाकम् इति धात्वंशस्य, कृतवान् इति प्रत्ययांशस्य च, कृतवान् इति प्रत्ययांशस्य च विवरणम् इति भवति, तर्हि किं भवति? क्तवतु प्रत्ययः, पक्ववान् इत्यत्र क्तवतु प्रत्ययः, पचति इत्यत्र तिङ् प्रत्ययः आसीत्, अत्र क्तवतु। यथा तत्र तिङ् प्रत्ययस्य भावना अर्थः इत्युक्तं, तथा अत्र क्तवतु प्रत्ययस्यापि भावना अर्थः इति वक्तव्यं भवति। किन्तु वस्तुतः क्तवतु प्रत्ययः कर्त्रर्थकः, पक्ववान् पक्ववन्तौ पक्ववन्तः इति कर्तारम् एव बोधयति, न तु भावनाम्। सो इट् इस् अ सिमिलर् आर्ग्युमेण्ट् विच् यु केन् गिव् इवन् फर् द कृदन्तास्। करोतिना विवरणं न केवलं तिङन्तेषु दृश्यते, अपि तु कृदन्तेष्वपि दृश्यते। यदि तिङन्ते प्रत्ययभागः करोतिना विव्रियते, अतः भावना प्रत्ययार्थः इत्युच्यते, तर्हि अत्रापि प्रत्ययार्थः भावना इति वक्तव्यम् इति एकः अंशः। द्वितीयोऽपि अंशः अस्ति अत्र, पक्ववान् इत्यादौ अनन्वया पत्तेः। कः अनन्वयः इति द्रष्टव्यम्। अयं भावः प्रकृतिप्रत्ययौ सहार्थं ब्रूतः, तयोः प्रत्ययार्थः प्रधानम् इत्यत्र हि विशेष्यतया प्रकृत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्य उपस्थितिर्हेतुः इति कार्यकारणभावः फलितः। प्रकृत्यर्थप्रकारकबोधं प्रति, यत्र प्रकृत्यर्थः प्रकारः नाम विशेषणीभूतः भवति, तादृशज्ञानं प्रति तदुत्तरप्रत्ययजन्य उपस्थितिः हेतुः। अर्थात् प्रकृत्यर्थः कश्चिदस्ति, तदुत्तरं यः प्रत्ययः तस्य कश्चिदर्थः। यत्र प्रत्ययार्थः अस्ति प्रत्ययजन्या कातिरुपस्थितिः, तत्र प्रकृत्यर्थप्रकारकबोधः, प्रकृत्यर्थः विशेषणं भवति इति कार्यकारणभावः। स एव अर्थः, इट् इस् जस्ट् पुटिङ्ग् दिस् इन् अ डिफरेण्ट् लाङ्ग्वेज्। सो दिस् प्रकारकबोध, हेतु, कार्यकारणभाव, दे आर् आल् अ पार्ट् आफ् द लाङ्ग्वेज् आफ् नैयायिकास्। ओके, सो वाट् वि से इन् नार्मल् वर्ड्स्, वि से प्रत्ययार्थः प्रधानम्। प्रधानमित्यर्थ कः अर्थः? प्रकृत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्य उपस्थितिः हेतुः इत्यर्थः। स एव कार्यकारणभावः इत्युच्यते। तथा च पक्ववान् इत्यत्र इदानीं किम् उक्तम्? पक्ववान् पच् धातुः, क्तवतु प्रत्ययः, तस्य विवरणं किं दीयते? पाकं कृतवान्। तत्र पाकम् इत्यत्र पाक इति प्रकृतिः, अम् इति प्रत्ययः। पक्ववान् इत्यस्य पाकं कृतवान् इत्युक्तम्। अत्र प्रत्ययार्थः प्रकृत्यर्थः पाकम्, एवं प्रत्ययार्थः कृतवान् इत्यस्ति। इदानीं पाकम् इत्यत्रापि पाक इति प्रकृतिः, अम् इति प्रत्ययः। तत्र अम् प्रत्ययार्थस्य कर्मणः प्राधान्यम्, अतः पाकम् इत्यनेन किमुच्यते? कर्मकारकम् उच्यते। एवं कृतवान् इत्यत्र कृ इति प्रकृतिः, क्तवतु इति प्रत्ययः, तत्र प्रत्ययार्थस्य कर्तुः प्राधान्यम्। सो इन् द विवरण, फ्रम् द वर्ड् पाकम्, वि अण्डर्स्टाण्ड् कर्म एस् द मेन् अर्थ, प्रधानार्थ, एण्ड् कृतवान् इत्यनेन कर्ता बोध्यते, पाकम् इत्यनेन कर्म बोध्यते, कृतवान् इत्यनेन कर्ता। एवञ्च पक्ववान् इत्यत्र ప్రకృత్యర్థ కర్మ ప్రత్యయార్థ కర్త ఇది వక్తవ్యం. ఇదానీం తయోః కథం అన్వయః, యత్ర అన్వయః భవతి తత్ర ప్రత్యయార్థః ప్రధానం. ఇదానీం ప్రకృత్యర్థః కర్మ ప్రత్యయార్థః కర్త, కర్తృకర్మణోః పరస్పర అన్వయే సతి ప్రత్యయార్థస్య ప్రాధాన్యం ఇతి వక్తవ్యం. కింతు ప్రకృత్యర్థస్య ప్రత్యయార్థస్య చ అన్వయః ఏవ వక్తుం అశక్యః. కిన్నిమిత్తం కారకాణాం క్రియాయామేవ అన్వయః నతు పరస్పరం. సో కారకాణాం పరస్పర అన్వయః నాస్తి. ఆల్ ది కారకాస్ రిలేట్ టు ద క్రియా. ఓకే, యత్ర రామః గచ్చతి గృహం గచ్చతి దేవాలయాత్ గచ్చతి పద్భ్యాం గచ్చతి. సో సర్వేషామపి కారకాణాం సాక్షాత్ క్రియయా అన్వయః నతు పరస్పరం. సో ఆల్వేస్ కారకాస్ ఆర్ డైరెక్ట్లీ రిలేటెడ్ టు ద క్రియా అండ్ నాట్ టు ఈచ్ అదర్. రామస్య ఇదానీం రామః దేవాలయాత్ గృహం పద్భ్యాం గచ్చతి ఇతి యది వాక్యమస్తి తర్హి రామస్య గృహేణ సహ వా దేవాలయేన సహ వా పద్భ్యాం సహ వా సంబంధః నాస్తి. దేర్ ఇస్ నో డైరెక్ట్ అన్వయ ఆఫ్ అ కారక విత్ ఎనీ అదర్ పదార్థ. ఓకే, ఇట్ విల్ ఆల్వేస్ డైరెక్ట్లీ రిలేట్ టు ద క్రియా. కారకాణాం క్రియాయామేవ అన్వయః నతు పరస్పరం. ఏతత్తు మీమాంసకైరపి అంగీక్రియతే. అరుణాధికరణం, సో వి హావ్ సీన్ అరుణాధికరణ ఎర్లియర్. అరుణయా పింగాక్ష్యా ఏకహాయన్యా సోమం క్రీణాతి ఇతి. తత్ర అరుణయా పింగాక్ష్యా ఏకహాయన్యా ఇతి తృతీయాంతాః సంతి, బహవః తృతీయాంతాః. తైః సర్వైః కరణముచ్యతే. తత్ర పరస్పర అన్వయః న, సర్వేషాం క్రియాయామేవ అన్వయః ఇది మీమాంసకైః ప్రతిపాదితః. సో ద మీమాంసకర్స్ దెమ్సెల్స్ సే తత్ర క్రియాయామేవ అన్వయః. అస్మద్రీత్యా వక్ష్యమాణ అస్మత్ తతశ్చ అరుణాధికరణోక్తరీత్యా వక్ష్యమాణ అస్మద్రీత్యా చ అన్వయ అసంభవః. అస్మద్రీతిః కా, క్రియాత్వమేవ కారకాన్వయితా విచ్ఛేదకత్వం ఇతి సుభర్త నిర్ణయే వక్ష్యతే. సో ఆఫ్టర్ ధాత్వర్థ నిర్ణయ హి హస్ సుభర్థ నిర్ణయ. యత్ర సః కథయతి కారకాన్వయిత అవచ్ఛేదకత్వం, కారకాణాం అన్వయః అన్వయస్య అవచ్ఛేదకం కిం క్రియాత్వం. సో ఇట్ ఇస్ ద ప్రాపర్టీ ఆఫ్ క్రియా విచ్ దట్ అట్రిబ్యూట్ విచ్ గవర్న్స్ ద అన్వయ ఆఫ్ కారక ఇస్ క్రియాత్వ. అర్థాత్ యత్ర క్రియాత్వం తత్రైవ కారకాన్వయః ఇతి అస్మద్రీత్యా చ అన్వయ అసంభవః. సో ఇన్ పక్వవాన్ ఇస్ పాకం కృతవాన్, ప్రకృత్యర్థ కర్మ ప్రత్యయార్థ కర్త ఇతి ఉచ్యతే చేత్ అన్వయ అసంభవ. యూ కెనాట్ రిలేట్ కర్త అండ్ కర్మ టు ఈచ్ అదర్, పరస్పరం అన్వయ ఏవ న భవతి. తథా సతి ప్రకృతి ప్రత్యయార్థయోః అన్వయ నియమస్యైవ అభావే. వెన్ యూ కెనాట్ రిలేట్ ప్రకృతి అండ్ ప్రత్యయ టు ఈచ్ అదర్, క్వ ప్రాధాన్య బోధకః ఉక్త కార్యకారణ భావః. తత్ర ప్రత్యయార్థస్య ప్రాధాన్యం ప్రకృత్యర్థ ప్రకారక శబ్ద బోధ ప్రకృత్యర్థ ప్రకారక బోధం ప్రతి ప్రత్యయ జన్య ఉపస్థితి హేతు ఇత్యాది కార్యకారణ భావస్తు దూరాపాస్తః. క్వ, హౌ డు యు ఈవన్ గెట్ టు దట్ కార్యకారణ భావ. పాకం కృతవాన్ ఇతి పరస్పరం అన్వయః ఏవ న భవతి. ప్రకృత్యార్థస్య కర్మణః ప్రకృత్యర్థస్య కర్మణః ప్రత్యయార్థస్య కర్తుశ్చ పరస్పర అన్వయస్యైవ అభావే తయోః కః కస్య ప్రాధాన్యం ఇతి విచారస్తు కర్తుమేవ న శక్యతే. అతః సః నియమః ఏవ న యుక్తః. సో హి సేయింగ్ దట్ నియమ విచ్ యు సే దట్ ప్రకృతి ప్రత్యయో సహ అర్థం రూతః తత్ర ప్రత్యయార్థస్య ప్రాధాన్యం ఇతి యదుచ్యతే తదేవ దుష్టం. So that niyama itself will not hold good if you are relying on that karya karana bhava. And saying pakvavan is pakam krutavan. Nacha sambandha matra muktancha shrutya dhatvartha bhava yoho tadekamsha nimeshetu vyaparosya navidyate iti bhattakarika. So there is a place where the mimamsaka say, జ్యోతిష్టోమేన స్వర్గకామో యజేత ఇతి శ్రుతిః. வேதவாக்கியம் ஏதத் ஜோதிஷ்டோமேன ஸ்வர்ககாமஹ யஜேத தத்ர யஜேத இத்யத்ர யஜ இதி தாதுஹ திங் பிரத்யயஹ விதிலிங் லகாரஹ தத்ர யஜ இதி தாத்வர்த்தஹ யாகஹ ஃபலம் பிரத்யயார்த்தஹ பாவனா இதி தேஷாம் சித்தாந்தஹ ததா சதி கா அர்த்தஹ யஜேத இத்யஸ்ய கஹ அர்த்தஹ ப்ரக்ருதேஹ தாதோஹ ஃபலம் அர்த்தஹ பிரத்யயஸ்ய பாவனா அர்த்தஹ கதம் பரஸ்பரம் அன்வயஹ இதி சேத் தத்ர யாக சம்பந்தினி பாவனா இத்யேவ வாச்யார்த்தஹ நது யாக கரணிகா பாவனா இதி வதந்தி சம்பந்த மாத்ரம் உக்தம் ச ஶ்ருத்யா தாத்வர்த்த பாவயோஹ தாத்வர்த்தஹ ஃபலம் பாவனா பிரத்யயார்த்தஹ பாவனா தயோஹ சம்பந்த மாத்ரம் உக்தம் ஶ்ருத்யா கேவல சம்பந்த நது க்ரியாகாரக ரூபஹ சம்பந்த தேகாம்ஷ நிவேஷே து தயோஹ நாம யாக பாவனயோஹ ஏகாம்ஷ நிவேஷே நாம க்ரியாகாரக பாவ ரூப சம்பந்த விசேஷ போதனே து அஸ்யாஹ ஶ்ருதேஹ வியாபாரஹ வியாபாரஹ நாம அபிதா அதவா சக்திஹி ந வித்யதே. So what they say is, even though whenever there is phala and vyapara, we say phalanukulaha vyaparaha. So vyapara is, we relate phala to vyapara directly because it is a kriya karaka bhava sambandha. Vyapara is kriya and phala is a karaka, okay, the karma karaka. Kintu te vadanti atra yaga sambandhini bhavana iti sambandha samanyam uchyate. It only gives a general relation. Remember, sambandha is samanya. Kriyakaraka is a special kind of relation. Karakatvam tu sambandha vishesha. It is a special kind of relation. Whereas sambandha in general is something else. Sotra kevalaha sambandhaha pratiyate natu kriyakaraka bhavaha iti karika vidyate. Sambandha matramuktam cha shrutya dhatvartha bhavayoho தேகாம்ஷ நிமேஷேது வியாபாரோஸ்யான வித்யதே இதி பட்டபாதோக்த ரீத்யா குமாரில பட்டைஹி உக்தமஸ்தி தத்ரீத்யா சம்பந்த சாமான்யேன காரகாணாம் அன்வயஹ நச சங்க்யஹ அத்ர நச இத்யஸ்ய அன்வயஹ தத்ர மீமாம்சகாஹ வதந்தி சத்யம் காரகாணாம் க்ரியாயாமேவ அன்வயஹ தத்ர கஹ சம்பந்தஹ காரக கிரியாகாரக சம்பந்த சக சம்பந்த விசேஷ அத்த பரஸ்பரம் காரகாணாம் கிரியாகாரக சம்பந்த சக விசேஷ சம்பந்த ந பவதி மாஸ்து சம்பந்த சாமான்யேன அன்வயஸ்து வக்தும் சக்யதே கஷ்டித் சம்பந்த அஸ்தி சாமான்யதயா சம்பந்த அஸ்தி இதி து வக்தும் சக்யதே இதி சேத் ததபி ந பவதி கிமர்த்தம் யோக்யதா விரஹாத் ஏவம் இஹாபி நாம பாகம் கிருத்தவான் பக்வவான் இத்யத்ர தாத்வர்த்தஹ கர்ம பிரத்யயார்த்தஹ கர்த்தா ஏவம் பாக சம்பந்தி கர்த்தா இதி சாமான்யதஹ போதஹ பவது இதி சேத் யத்ர விசேஷ ரூபேண போதஹ தத்ர க்ரியாயாஹ அபேக்ஷா சாமான்ய ரூபேண அன்வயஹ பவது இதி மீமாம்சகாஹ கிந்து ந பவதி கிமர்த்தம் கதம் பவதி அன்வயஹ ஹவு டு யூ ரிலேட் வேர்ட்ஸ் ஆதௌ பதானாம் சக்தி கிரஹஹ ஓகே ஃபர்ஸ்ட் யூ அண்டர்ஸ்டாண்ட் த மீனிங் ஆஃப் த டிஃபரெண்ட் காம்போனன்ட்ஸ் ததஹ பதார்த்த உபஸ்திதி சக்தி கிரஹே சதி பதார்த்தாஹ உபதிஷ்டந்தே சோ யூ கெட் த மீனிங்ஸ் அவுட் ஆஃப் டிஃபரெண்ட் காம்போனன்ட்ஸ் ததஹ யோக்யதா நிர்ணயஹ ஆஃப்டர் தட் யூ ஹேவ் டு டிசைட் இஃப் த அர்த்தஸ் have the yogyata of being related to each other. So we will the shabda bodha for understanding something, there are three or four factors which are required. Akanksha, yogyata, sannidhi and tatparya is the fourth one. They are called shabda bodha sahakari karanani. So even though you have words stringed together, you will not have meaning. Shabda bodha na bhavati, kutra na bhavati, ஆகாங்க்ஷா நாஸ்தி சேன் ந பவதி யதா கௌரஷ்வ புருஷோ ஹஸ்தி. சோ யூ ஹாவ் அ ரேண்டம் கலெக்ஷன் ஆஃப் வேர்ட்ஸ் பரஸ்பரம் ஆகாங்க்ஷா நாஸ்தி தெர் இஸ் நோ ஆகாங்க்ஷா இஃப் யூ சே से गच्छति इत्युक्ते कः गच्छति इति आकांक्षा एवं रामः इत्युक्ते रामः किं करोति इति आकांक्षा रामः गच्छति इत्युक्ते आकांक्षा पूर्णा सो देयर इज अ आकांक्षा फॉर ईच अदर इन अ प्रॉपर सेंटेंस व्हेन देयर इज नो आकांक्षा देयर इज नो शब्दबोध एवं सन्निधि द वर्ड्स नीड टू बी टोल्ड क्लोज टू ईच अदर से आई से घटम नौ एंड देन आफ्टर हाफ एन अवर आई से आनय Nobody will understand it. I mean, you won't even remember that I said ghatam or relate it. Ataha sannidhihi apekshita. Yogyata vanhina sinchati sprinkles with fire. Vanhehe sekakriyayam anvaya yogyata nasti. Okay, drava dravyasyaiva sekakriyayam yogyata. It is only a fluid, a liquid which has the yogyata of being associated with the action of sprinkling. So that is why you cannot make a statement like vanhina sinchati. There is no shabda bodha. And tatparya. So these are all essential before you relate things to each other. Evam chatra shakti grahe padarthopasthityam satyam yadi yogyata asti tadaiva paraspara anvayah bhavati. Atra tu yogyata eva nasti. Ataha sambandha samanyena api paraspara anvayah na bhavati. Yogyata namaka. Now, what is this yogyata? Iti prashnaha. Eka padarthe aparapadartha sambandhaha yogyata. Iti chen na. You cannot simply define it as ekasmin padarthe aparasya padarthasya sambandhaha. One padartha being related to other padartha is yogyata. Only that cannot be yogyata. Kimartham. अन्वय प्रयोजक रूपवत्तस्यैव तथात्वात् एकम् उदाहरणं दीयते एक पदार्थे अपर पदार्थ संबंध मात्रं योग्यता न इट इज नॉट जस्ट दट वन वर्ड बीइंग रिलेटेड टू द अदर इज योग्यता एक पदार्थे अपर पदार्थ संबंध प्रयोजक रूपवत्त्वम् दट अदर पदार्थ शुड हैव अ रूप विच कैन enable it to have the sambandha with the padartha. Okay, so if you have two padarthas, you just can't relate them to each other. One of them should have a rupa which will enable it to get associated with the other padartha. So an example they give is jalam ahara, bring water. Ghatena jalam ahara ityasti. Ghataha karanatvena anveti aharane, jalasya aharane. Here, यदि एक पदार्थे अपर पदार्थ संबंधः वन पदार्थ बीइंग रिलेटेड टू अदर इज योग्यता सुशीर घटस्यापि करणत्वेन अन्वयापत्तिः इवन पॉट विथ होल्स कुड बी रिलेटेड एज करण फॉर आहरण ओके व्हिच इज नॉट डिजायर्ड अ पॉट विथ होल्स डज नॉट हैव योग्यता फॉर बीइंग अ करण फॉर आहरण एतदेव अपर पदार्थ संबंध प्रयोजक रूपवत्त्वं तस्य रूपं घटपदार्थस्य यद्रूपं तत् आहरण पदार्थ संबंधं प्रयोजयेत् यदि छिद्रः अस्ति घटः तर्हि आहरण संबंध प्रयोजक रूपवत्त्वं नास्ति यत्तु अच्छिद्रः घटः तस्यैव योग्यता आहरणे करणत्वेन अन्वयस्य अतः एक पदार्थे अपर पदार्थ संबंध प्रयोजक रूपवत्त्वं योग्यता इत्युच्यते क्रियात्वं एव हि कारकान्वयिता वच्छेदकं कारकैः सह अन्वयं प्राप्तुं किं अपेक्षितं क्रियात्वं अपेक्षितं ओके सो दैट इज व्हाई व्हाट ही इज सेइंग इज पाकं कृतवान् तत्र मीमांसकैरुक्तं प्रकृत्यर्थः कर्म प्रत्ययार्थः कर्ता तयोः क्रियाकारकभावेन अन्वयः मास्तु सम्बन्धसामान्येन अन्वयः भवतु इति चेत् सम्बन्धसामान्येनापि अन्वयः न भवति कुतः योग्यता विरह तत्र तु योग्यता एव नास्ति क्रियात्वम् अस्ति चेदेव कारकसम्बन्धः कारकेण अन्वेतुं योग्यता भवति क्रियात्वस्य अभावे कारकाणां येन केनापि सम्बन्धेन अन्वयः न भवति पूर्वं यदुदाहरणमुक्तं ज्योतिष्टोमेन यजेत अत्र प्रकृत्यर्थः यागः प्रत्ययार्थः भावना तत्र भावनायां क्रियात्वम् अस्ति अतः करणकारकस्य यागस्य अन्वयः सम्भवति सः सम्बन्धः यः को वा भवतु यु केन् डिफैन् दट् सम्बन्ध ईदर् अस् अ कारकसम्बन्ध आर् अ सम्बन्ध सामान्य बट् द योग्यता इस् प्रोवैडेड् बै दट् क्रियात्व इन् भावना इन् दिस् केस् इफ् वन् इस् कर्ता एण्ड् द अदर् इस् कर्म देर् इस् नो क्रियात्व सो यु केन् नाट् रिलेट् देम् टु ईच् अदर् बै एनी कैण्ड् आफ् सम्बन्ध एतदेव पाणिनिना कारके इति अधिकारः क्रियते कारके इत्युक्त्वा ध्रुवोपाये अपादानम् इत्यादि अतः अधिकारात् क्रियान्वयिनामेव कर्त्रादिसंज्ञाविधानम् यत्र क्रियान्वयः अस्ति तत्रैव कर्ता कर्म इत्यादि व्यवहारः सम्भवति यदि क्रियान्वयित्वं नास्ति तर्हि कर्तृत्वम् अपि न भवति कर्मत्वमपि न भवति तयोरन्वयः वा कथं भवेत् इति प्रश्नः ओके सो वी विल् स्टाप् हियर् जस्ट् वन् मोमेण्ट् प्लीज् Okay, we'll stop here and continue in the next class. Parashvaha Vargaha. So the next class is on Thursday. I need to go somewhere, so we will not read the karikas. Please read the karikas on your own. We'll continue in the next class. Shri Lakshmi Ramanan Naomi Gauri Ramana Rupinam Sphota Rupanya Tassarvan Jagadetad Vivartate. धन्यवादः